एष रेडियो नेपाल सम्प्रति समाचार श्रूयन्ताम् प्रवाचक उपेन्द्र दहाल। प्रधानमन्त्री केपी शर्मा ओली कथयति वर्तमान सर्वकार युवभि बालबालिकाभिश्च सहैव वर्तते। नेपाल स्काउट संस्थाया सप्ततितमस्य स्थापना दिवसस्य अवसरे यः शुभकामना सन्देशं ददत् प्रधानमन्त्री ओली देशेन अवलम्बिताभ्यां मार्गेण उद्देश्येन च सह स्काउट संस्थायाः उद्देश्यानि अनुकूलानि सन्तीति तर्कयन अकथयत यूनां बालबालिकानां च पक्षे सर्वकारः सदैव तिष्ठति। सन्देशे प्रधानमन्त्रिणा ओलिना उक्तं सर्वकारस्य समृद्धो नेपाल सुखिनो नेपालिनश्चेति राष्ट्रियाकांक्षायाः पूरणाय स्काउट संस्थायाः अनुशासनम् एकताबद्ध प्रयासश्च सहयोगिनौ भवतः। प्रधानमन्त्री ओली आगामिनः आर्थिक वर्षस्य अभ्यन्तरे देशस्य त्रयोदश सहस्रेष् सामुदायिक विद्यालयेष् स्काउट संस्थायाः शाखाः सञ्चालयिष्यन्ते इत्यभासत। नेपालेन अत्यल्प विकसित राष्ट्राणां विकासस्य आकांक्षां पूरयितुं निवेशनाभावस्य परिपूर्तये सर्वे विकास सहयोगिनः अनुरुद्धाः सन्ति। अत्यल्प विकसित राष्ट्राणि विकासस्य मार्गे अग्रेसराणि कारयितुं अन्तर्राष्ट्रिय समुदायेन वित्तीय सहयोगस्य प्रतिबद्धतायं ज्ञापितायं सत्यमपि तस्या अक्रियान्वयनस्य सन्दर्भे नेपालेन सर्वे विकास सहयोगिनः पुनः अनुरुद्धाः सन्ति। अत्यल्प विकसित राष्ट्रेषु निवेशनं वर्धयितुं वित्तीयोपकरणानां विविधीकरण विषये संयुक्त राष्ट्र संघीय महासभायाः उपवेशं श्रव्यदृश्य प्रविधेर माध्यमेन सम्बोधयन् ह्य उपप्रधान परराष्ट्रमन्त्री रघुवीर महासेठ अत्यल्प विकसित राष्ट्राणां विकासस्य आवश्यकतां पूरयितुं अन्तर्राष्ट्रिय सहयोगस्य अपरिहार्यतायै बलं प्रादादिति न्यूरक स्थितेन संयुक्त राष्ट्र संघस्य कृते नेपालस्य स्थायी नियोगेन ज्ञापितं वर्तते। सभामुखा अग्निप्रसाद सापकोटा कथयति दायित्वबाहितया निष्ठापूर्वकञ्च कार्यं कर्तुम् इच्छा शक्तौ सत्यं समाजे निदर्शन कार्याणि भवितुम् अर्हन्ति। एकीकृताखिल नेपाल शिक्षक संघटनस्य केन्द्रीय कार्यसमित्या ह्य आयोजिताम् एकविंश्यां शताब्द्यां निदर्शन विद्यालयानां निर्माणमिति विषयिणीं त्रिदिवसीय राष्ट्रिय कार्यशाला गोष्ठीं श्रव्यदृश्य प्रविधेर माध्यमेन उद्घाटयन् सभामुख सापकोटा अगदत् निदर्शन विद्यालयानां निर्माणाय चिन्तनं दृष्टिकोणञ्च निदर्शने विधाय अग्रे वर्धनीयम्। सभामुख सापकोटा अभाषत राष्ट्रे सम्प्रति कोरोना महामार्या राजनीतिक समस्याया जल विप्लव भूस्खलनयोश्च संकटं प्रतिकृत्य अग्रे वर्धनस्य अवस्था वर्तते। नेपाली कांग्रेस दलस्य वरिष्ठ नेता रामचन्द्र पौडेल कथयति दलाय संकटस्य प्रतिकरण क्षमं नेतृत्वम् आवश्यकं वर्तते। स्थानीयस्तराय चिकित्सालयाय च स्वास्थ्य सामग्रीणां वितरणाय ह्य तनौ जनपदे आयोजिते कार्यक्रमे वरिष्ठ नेता पौडेल कांग्रेस दलाय सक्षम नेतृत्वस्य आवश्यकतां प्रादर्शयत। असौ सम्प्रति राष्ट्रं ध्रुवद्वयेन विभक्तम् अस्तीति चर्चयन् लोकतन्त्र पक्षधरैः एकीभूय अग्रे वर्धितव्यमिति धारणामुपस्थापयत्। बारा जनपदस्य सिमरावर्तिनी जगदम्बा स्टील उद्योगे गतरात्रौ दुरापन्नेन भीषणाग्निदाहेन श्रमिकद्वयं मृतम् अन्य चत्वारो जना गभीरेण आहताश्च सन्ति। विद्युत्तन्त्रया विफलतया मुख्योत्पादनशालायाम् अग्निदाहेन विस्फोटः सम्भूत एतस्मिन् क्रमे तत्र कार्यरतौ भारतस्य बिहार राज्यस्य प्रदीप गगोण रामनाथ महतो च घटनास्थले एव मृतौ इति बारा जनपद प्रहरी कार्यालयस्य प्रहरी नायब उपरीक्षकः प्रवक्ता च गौतम मिश्रः ज्ञापयत। अग्निदाहेन उद्योगे कोटिशः रूप्यकाणां क्षति सम्भूता अस्ति। अग्निदाहस्य नियन्त्रणमनु सम्प्रति क्षते विवरण संकलनस्य कार्य विद्यमानम् अस्तीति प्रवक्ता मिश्र अबोधयत्। सर्वकारेण विदेश भ्रमणार्थं द्वाविंशतेः पीसीआर परीक्षणस्य विवरणस्य मान्यता प्रदत्ता अस्ति। स्वास्थ्य जनसंख्या मन्त्रालयेन विदेशं जिगमिषूणां जनानां कृते पीसीआर परीक्षणस्य सम्बन्धे सर्वासां सर्वकारीयाणां पीसीआर परीक्षणशालानां द्वाविंशते नैज चिकित्सालयानां प्रयोगशालानाञ्च परीक्षणस्य विवरणाय मान्यता प्रदत्ता अस्ति इति स्वास्थ्य जनसंख्या मन्त्रालयस्य सहप्रवक्ता डा समीर कुमार अधिकारी अज्ञापयत्। नेपाले ह्य अतिरिक्ता सहस्रत्रयं षष्ट्यधिक षट्शतञ्च जना कोरोना विषाणु संक्रमणात् मुक्ता। अनेन सह नेपाले ह्यस्तनावधि कोरोना विषाणु संक्रमणात् मुक्तानां जनानां समग्र संख्या पञ्चलक्षाणि त्रिपञ्चाशत् सहस्राणि द्वाचत्वारिंशत् अधिक शतत्रयं च प्राप्ता अस्ति। एवं मुक्तानां जनानां अंकमान प्रतिशतं 10.99 वर्तते इति स्वास्थ्य जनसंख्या मन्त्रालयो ज्ञापयति। ह्य अतिरिक्तेषु सहस्रद्वय एकोत्तर चतुशतेश्च जनेषु कोरोना विषाणु संक्रमणं पुष्टिभूतं वर्तते। ह्य आराष्टम् अतिरिक्तः चतुस्त्रिंशत् संक्रांत जनाः मृताः। अनेन स नेपाले कोरोना विषाणो संक्रमणस्य कारणेन ह्यस्तनावधि मृतानां जनानां संख्या योगतः 8,575,600 प्राप्यति। स्वास्थ्य जनसंख्या मन्त्रालयो ज्ञापयति। कोविड विषाणुना संक्रान्तानां जनानां उपचारे क्रियाशीलेन चितवन मेडिकल कलेज चिकित्सा महाविद्यालयेन कोविड विषाणु उपचारोत्तरकालिका परामर्शोपचार सेवा प्रारब्ध वर्तते। इति समाचारः।